ओम नमो भगवते वासुदेवाय। अथ त्रयोदशोऽध्यायः। श्रीशुक उवाच। साधु पृष्टं महाभाग त्वया भागवतोत्तम यन्नूतनयसीशस्य शृण्वन्नपि कथां मुहुः। सतामयं सारभृतां निसर्गो यदर्थवाणी श्रुतिचेतसामपि। प्रतिक्षणं न व्यवदच्युतस्य यत् स्त्रियां विटानामिव साधुवार्ता। शृणुष्वावहितो राजन्नपि गुह्यं वदामि ते। ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत। तथा गवदनान् मृत्यो रक्षित्वा वत्सपालकान् सरित्पुलिनमानीय भगवानिदमब्रवीत्। अहो तिरम्यं पुलिनं वयस्या स्वकेलिसम्पन् मृदुलाच्छवालुकम् स्फुटत् सरोगन्धरितालिपत्रिकध्वनिप्रतिध्वानलसद्रुमाकुलम्। अत्र भोक्तव्यमस्माभिर्दिवारूढं क्षुधार्दिताः। वत्सा समीपे पः पीत्वा चरन्तु शनकैस्त्रिणम्। तथेति पाययित्वार्भा वत्सा नारुध्य साध्वले। मुक्त्वा शिक्यानि बुभुजुः समं भगवता मुदा। कृष्णस्य विश्वक् पुरुराजिमण्डलैरभ्यानना फुल्लदृशो व्रजार्भकाः। सहोपविष्टा विपिने विरेजुच्छदा यथाम्बोरुहकर्णिकायाः। केचित् पुष्पैर्दलैः केचित् पल्लवैरङ्कुरैफलैः। शिग्भिस्त्वग्भिर्दृशद्भिश्च बुभुजुः कृतभाजनाः। सर्वे मिथो दर्शयन्तः स्वस्वभोज्यरुचिं पृथक्। हसन्तो हासयन्तश्चाभ्यवजर्रुः सहेश्वराः। बिभ्रद्वेणुं जठरपटयोः शृङ्गवेत्रे च कक्षे। वामे पाणौ मसृणकवलं तत्फलान्यङ्गुलीषु। तिष्ठन्मध्ये स्वपरिसुहृदो हासयन्नर्मभिः स्वैः। स्वर्गे लोके मिषति बुभुजे यज्ञभुग्बालकेलिः। भारतैवं वत्सपेषु भुञ्जानेष्वच्युतात्मसु। वत्सास्त्वन्तर्वने दूरं विविशुस्त्रिणलोभिताः। तान् दृष्ट्वा भयसन्त्रस्ता नूचे कृष्णोऽस्य भीभयम्। मित्राणि आशान् मा विरमते हानेशे वत्सकानहम्। इत्युक्त्वा द्रिदरीकुञ्ज गह्वरेष्वात्मवत्सकान् विचिन्वन् भगवान् कृष्णः सपाणि कवलोययौ। अम्भो जन्मजनिस्तदन्तर्गतो मायार्भकस्येषितुर् द्रष्टुं मञ्जुमहित्वमन्यदपि तद्वत्सानितो वत्सपान्। नीत्वान्यत्र कुरुद्वहान्तरदधात् खेवस्थितो यः पुरा। दृष्ट्वा घासुरमोक्षणं प्रभवतः प्राप्तः परं विस्मयम्। ततो वत्सान् दृष्ट्वैत्य पुलिनेऽपि च वत्सपान्। उभावपि वने कृष्णो विचिकाय समन्ततः। क्वाप्य दृष्ट्वान्तर्विपिने वत्सान् पालांश्च विश्ववित्। सर्वं विधिकृतं कृष्णः सहसा वजगामः। ततः कृष्णो मुदं कर्तुं तन्मात्रीणां च कस्य च उभयायितमात्मानं चक्रे विश्वकृदीश्वरः। यावद्वत्सपवत्सकाल्पकवपुर्यावत्कराङ्घ्र्यादिकम् यावद्यष्टिविषाणवेणुदलशिग् यावद्विभूषाम्बरम् यावच्छीलगुणाभिदाकृतिवयो यावद्विहारादिकम् सर्वं विष्णुमयं गिरोऽङ्गवदजः सर्वस्वरूपो बभौ। स्वयमात्मात्मगो वत्सान् प्रतिवार्यात्मवत्सपैः। क्रीडन्नात्मविहारैश्च सर्वात्मा प्राविशद्व्रजम्। तत्तद्वत्सान् पृथङ् नीत्वा तत्तद्गोष्ठे निवेश्य सः तत्तदात्मा भवत् राजंस्तत्तत् सद्म प्रविष्टवान्। तन्मातरो वेणुरवत्वरोत्थिता उत्थाप्य दोर्भिः परिरभ्य निर्भरम्। स्नेहस्नुतस्तन्यपयः सुधासवं मत्वा परं ब्रह्मसुतानपाययन्। ततो नृपोन्मर्दनमज्जलेपनालङ्काररक्षातिलकाशनादिभिः संलालितः स्वाचरितैः प्रहर्षयन्। सायं गतो यामयमेन माधवः। गावस्ततो गोष्ठमुपेत्य सत्वरं हुङ्कारघोषैः परिहूतसङ्गतान्। स्वकान् स्वकान् वत्सतरानपाययन् मुहुर्लिहन्त्यः श्रवदौधसम्पयः। गो गोपीनां मातृता अस्मिन् सर्वास्नेहर्धिकां विना पुरोवदा स्वपि हरे स्तोकता मायया विना व्रजौकसां स्वतोकेषु स्नेहवल्याब्धमन्वहम् शनैर्निःसीम ववृधे यथा कृष्णे त्वपूर्ववत् इत्थमात्मात्मनात्मानं वत्सपालमिषेण सह पालयन् वत्सपो वर्षं चिक्रीडेवन गोष्ठयोः एकदा चारयन् वत्सान् सरामो वनमाविशत् पञ्चशा सूत्रियामासु हायना पूरणीष्वजः ततो विदुराच्चरतो गावो वत्सानुपव्रजम् गोवर्धनाद्रिशिरसि चरन्त्योददृशुस्त्रिणम् दृष्ट्वाथ तत्स्नेहवशो स्मृतात्मा स गोव्रजोऽत्यात्मपदुर्गमार्गः द्विपात्ककुद्ग्रीव उदास्य पुच्छो गाधुम् कृतैराश्रुपया जवेन समेत्य गावोधो वत्सान् वत्सवत्योऽप्यपाययन् गिलन्त्यैव चाङ्गानि लिहन्त्यः सौधसम्पयः गोपास्तद्रोधनायास मौघ्यलज्जोरुमन्युना दुर्गाध्वकृच्छ्रतोऽभ्येत्य गोवत्सैर्ददृशुः सुतान् तदीक्षणोत्प्रेमरसाप्लुताशया जातानुरागागतमन्यवोर्भकान् उदुयदोर्भिः परिरभ्य मूर्धनि घ्राणैरवापुः परमाम्मुदम् ते ततः प्रवयसो गोपास्तोकाश्लेषु निर्वृताः कृच्छाच्छनैरपगतास्तदनुस्मृत्युदर्शवः व्रजस्य रामः प्रेमर्धेर्वीक्ष्योत्कण्ठ्यमनुक्षणम् मुक्तस्तनेष्वपत्येष्वप्यहेतुविदचिन्तयत् किमेतदद्भुतमिव वासुदेवेऽखिलात्मनि व्रजस्य सात्मनस्तोकेष्वपूर्वम् प्रेम वर्धते केयम् वा कुत आयाता दैवी वा नार्युतासुरी प्रायो मायास्तु मे भर्तुर्नान्यामेऽपि विमोहिनी इति सञ्चिन्त्य दाशार्हो वत्सान् सवयसानपि सर्वानाचष्ट वैकुण्ठम् चक्षुषा वयुनेन सह नैते सुरेशा ऋषयो न चैते त्वमेव भासीषभिदाश्रयेऽपि सर्वम् पृथक् त्वम् निगमात् कथम् वदेत्युक्तेन वृत्तम् प्रभुणा बलोऽवैत् तावदेत्यात्मभूरात्ममानेन त्रुट्यनेहसा पुरोवदब्दम् क्रीडन्तम् ददृशे सकलम् हरिम् यावन्तो गोकुले बाला सवत्सा सर्व एव हि मायाशये शयानामेनाद्यापि पुनरुत्थिताः इत एतेऽत्र कुत्रत्या मन्माया मोहितेतरे तावन्त एव तत्राब्दम् क्रीडन्तो विष्णुना समम् एवमेतेषु भेदेषु चिरम् ध्यात्वा स आत्मभूः सत्याः के कतरे नेति ज्ञातुम् नेष्टे कथञ्चन एवम् सम्मोहयन् विष्णुम् विमोहम् विश्वमोहनम् स्वयैव मायया जोऽपि स्वयमेव विमोहितः तम्याम् तमोवन्नैहारम् खद्योतार्चिरिवाहनी महतीतरमायैष्यम् निहन्त्यात्मनि युञ्जतः तावत् सर्वे वत्सपालाः पश्यतो जस्य तत्क्षणात् व्यदृश्यन्त घनश्यामाः पीतकौशेयवाससः चतुर्भुजाः शङ्खचक्रगदा राजीवपाणयः किरीटिनः कुण्डलिनो हारिणो वनमालिनः श्रीवत्साङ्गददो रत्नकम्बुकङ्कणपाणयः नूपुरैः कटकैर्भाताः कटिसूत्राङ्गुलीयकैः आङ्घ्रिमस्तकमापूर्णास्तुलसी नवदामभिः कोमलैः सर्वगात्रेषु भूरिपुण्यवदर्पितैः चन्द्रिकाविशदस्मेरैः सारुणापाङ्गवीक्षितैः स्वकार्थानामिव रजः सत्त्वाभ्याम् सृष्टिपालकाः आत्मादिस्तम्भपर्यन्तैर्मूर्तिमद्भिश्चराचरैः नृत्यगीताद्यनेकार्हैः पृथक् पृथगुपासिताः अणिमाद्यैर्महिमभिरजाद्याभिर्विभूतिभिः चतुर्विंशतिभिस्तत्त्वैः परीतामहदादिभिः कालस्वभावसंस्कार कामकर्मगुणादिभिः स्वमहिध्वस्तमहिभिर्मूर्तिमद्भिरुपासिताः सत्यज्ञानानन्तानन्दमात्रैकरसमूर्तयः अस्पृष्टभूरिमाहात्म्या अपि युपनिषद्दृशाम् एवम् सकृद्ददर्शाजः परब्रह्मात्मनोऽखिलान् यस्य भासा सर्वमिदम् विभाति सचराचरम् ततोऽतिकुतुकोद्वृत्तस्तिमितैकादशेन्द्रियः तद्धाम्ना भूतजस्तूष्णीम् पूर्देव्यन्तीव पुत्रिका इति रेषे तर्क्ये निजमहिमनिःस्वप्रमितिके परत्राजातो तन्निरसनमुखब्रह्मकमितौ। अनीशेऽपि द्रष्टुम् किमिदमिति वा मुह्यति सति तथादाजो ज्ञात्वा सपदि परमो जाजवनिकाम् ततोर्वाक् प्रतिलब्धाक्षः कः परे तवदुत्थितः कृच्छ्रादुन्मील्य वै दृष्टिराचष्टेदम् सहात्मना सपद्येवाभितः पश्यन् दिशो पश्यत् पुरः स्थितम् वृन्दावनम् जनाजीव्य द्रुमाकीर्णम् समाप्रियम् यत्र नैसर्गदुर्वैराः सहासन् नृमृगादयः मित्राणि वाजिता वासत् रुतरुट्तर्षकादिकम् तत्रोद्वहत् पशुपवंशशिशुत्वनाट्यम् ब्रह्माद्वयम् परमनन्तमगाधबोधम् वत्सान् सखी निव पुरा परितो विचिन्वद् एकम् सपाणिकवलम् परमेष्ठ्यचष्ट दृष्ट्वा त्वरेण निजधोरणतोऽवतीर्य पृथ्व्याम् वपुः कनकदण्डमिवाभिपात्य स्पृष्ट्वा चतुर्मुकुटकोटिभिरङ्घ्रियुग्मम् नत्वा मुदस्रुसुजलैरकृताभिषेकम् उत्थायोत्थाय कृष्णस्य चिरस्य पादयोः पतन् आस्ते महित्वम् प्राग्दृष्टम् स्मृत्वा पुनः पुनः सनैरथोत्थाय विमृज्य लोचने मुकुन्दमुद्वीक्ष्य विनम्रकन्धरः कृताञ्जलिः प्रश्रयवान् समाहितः सवे पथुर्गद्गदयैलतेलया ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्दे पूर्वार्धे त्रयोदशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।